इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। भारतीय अन्तरिक्षयात्री शुभांशु शुक्ला अथ च एक्सियोम 4 इति अभियानस्य चालकदलस्य अन्ये त्रयः सदस्याः अन्ताराष्ट्रिय अन्तरिक्षस्थानकात् 18 दिवसानाम् ऐतिहासिक अभियानस्य अनन्तरं सुरक्षितरूपेण पृथ्वीं प्रत्यागन्तवन्तः सन्ति। चालकदलम् अधुना पृथिव्याः गुरुत्वाकर्षणं समायोजितं कर्तुं 7 दिवसानां पुनर्वासकार्यक्रमे भागं गृहीष्यति। दलनायकः शुभांशु शुक्ला अन्ताराष्ट्रिय अन्तरिक्षस्थानकस्य यात्रां कुर्वाणः प्रथम भारतीयः अपि च दलनायकस्य राकेश शर्मणः अनन्तरं द्वितीयः भारतीय अन्तरिक्षयात्री वर्तते, यश्च राकेश शर्मा 84-19 शततमे वर्षे अन्तरिक्षम् अगच्छत्। आकाशगंगानामकम् अभियानमिदं एक्सियोम स्पेस अमेरिकायाः अन्तरिक्षसंस्थानं नासा भारतीय अन्तरिक्ष अनुसन्धान संघटनं इसरो इत्यनयोः मध्ये एकः सहयोगी प्रवासः वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुः एवं प्रधानमन्त्री नरेन्द्र मोदी च अन्तरिक्षे ऐतिहासिक अभियानात् पृथ्वीं प्रत्यागतस्य दलनायकस्य शुक्लवर्यस्य कृते अभिनन्दनं कृतवन्तौ। राष्ट्रपतिः द्रौपदी मुर्मुवर्या भारतीय अन्तरिक्षान्वेषणे अथ वैश्विक वैज्ञानिक सहकार्ये च शुभांशु शुक्लवर्यस्य सफलतायाः प्रशंसां कृतवती। प्रधानमन्त्री प्रोक्तवान् यत् एषा यात्रा प्रेरणादायिका अथ गगनयान मिशन कृते एकं सोपानम् इति। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् शांघाई सहयोग संघटनेन आतंकवादस्य पृथकतावादस्य उग्रवादस्य च विषयेषु सन्धिरहिता स्थितिः स्वीकरणीया। डॉ जयशंकरः ह्यः सायंकाले चीनदेशस्य टियांजिन नगरे शांघाई सहयोग संघटनम् इत्यस्य विदेशमन्त्रिणाम् उपवेशने भागम् अभजत। पहलगाम नगरे आतंक्याक्रमणस्य उल्लेखं कुर्वन् मन्त्रिवर्यः अवदत् यत् धार्मिक विभाजनं विधातुं जम्मू कश्मीर राज्यस्य पर्यटन अर्थव्यवस्थां दुर्बलं च कर्तुम् एतत् कुकृत्यं विहितं वर्तते। सः अवदत् यत् संयुक्त राष्ट्रसंघस्य सुरक्षा परिषद् अस्याः घटनायाः निन्दाम् अकरोत्, सहैव एतादृशस्य आतंकवादस्य अपराधीनाम् आयोजकानाम् वित्तदातॄणाम् प्रायोजकानां च उत्तरदायित्वस्य रेखांकीकरणस्य विषये बलम् अददात्। केन्द्रेण बांग्लादेशस्य प्रख्यातस्य चलच्चित्र निर्मातुः सत्यजीत रे इत्यस्य पैतृकसम्पत्त्याः ध्वंसन निर्णयस्य पुनर्विचारः करणीयः इति आह्वानं कृतम्। भारतेन अस्य प्रतिष्ठित भवनस्य संरक्षणाय साहाय्यार्थमपि आह्वानं कृतमस्ति, यतः एतत् बांग्ला सांस्कृतिक पुनर्जागरणस्य प्रतीकं वर्तते। अवधेयम् अस्ति यत् भारतीय विदेश मन्त्रालयस्य इयं प्रतिक्रिया तदा एव निर्गता यदा बांग्लादेशस्य अधिकारिभिः भवनं ध्वस्तं कर्तुं निश्चितम् इति समाचारः विज्ञातः। उत्तराखण्डस्य पित्तोरगढ़मण्डलस्य मुवानी क्षेत्रे गतसन्ध्यायां थालपित्तोरगढ़मार्गे यात्रीवाहनं नद्यां पतित्वा न्यूनातिन्यूनम् 8 जनानां मृत्युः अभवत्। दुर्घटने चत्वारः जनाः गंभीररूपेण घातिताः अभवन्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अस्मिन् घटनायां जनानां प्राणहानि विषये अतीव दुःखं प्रकटितवान्। मोदी महोदयः क्षतिग्रस्तानां शीघ्रं स्वस्थतां कामयामास। दुर्घटने ये च प्रियजनं त्यक्तवन्तः तेषां प्रति शोकं प्रकटितवान्। प्रधानमन्त्रिणा प्रत्येकस्य मृतस्य निकटजनानां कृते प्रधानमन्त्रिणः राष्ट्रिय आपदुद्धार कोषात् 2 लक्ष रूप्यकाणाम् अनुग्रहः अपि घोषितः वर्तते। व्रणितानां कृते 50,000 रूप्यकाणि घोषितानि वर्तन्ते। ईरानदेशे भारतीय दूतावासेन भारतीय नागरिकाः ईरानदेशस्य अनावश्यक यात्रायाः परिहाराय आग्रहः कृतः। विगतसप्ताहेषु क्षेत्रे सुरक्षाचिन्तानां वर्धमानस्य मध्ये यात्रापरामर्शपत्रं प्रकाशितं वर्तते इति वार्ताः।